ॐ नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः शब्दात्रयविभागयोगम्। अर्जुन उवाच, ये शास्त्रविधिमुसृज्य यजन्ते सद्वयान्विता तेषां निष्ठा तु का कृष्णं सत्तोमाहोरजस्तमहं। श्रीभगवानुवाच, त्रिविधा भवति श्रद्धा देहीनं स स्वभावजा सत्त्वकी राजसी चैव तामसी चेति तं शृणु। सत्त्वानुरूपसर्वैषां श्रद्धा भवति भारतं श्रद्धामयोऽयं पुरुषो यो यश्रद्धा स एव सं यजन्ते सात्विका देवान् यक्षरक्षंसि राजसां प्रेतनभूतगणं चन्ने यजन्ते तामसा जनः। अशस्त्रविहितं घोरं तप्यन्ते जेतपूजनः दम्भाहङ्कार संजगता कामरागबलान्वितां कर्षयन्त शरीरस्थं भूतग्रामं अचेतसः। मं चैवन्त शरीरस्थं तन्विद्यासुरनिशयान् आहारस्त्वपि सर्वेशं त्रिविधो भवति प्रियां यज्ञस्तपस्तथा दानं तेषं भेदं इमं शृणु। आयुषत्वबलारोग्यं सुखप्रीतिविवर्धना रस्याश्रिग्धाशिरा हृद्या आहार सात्विकप्रियां कट्वम्लवणातिष्णं तीक्ष्णरुक्षविदाहिनम् आहाराराजसश्रेष्ठा दुःखशोकामयप्रदां जातजामङ्गतरसं पूतिपर्युषितं च जात् ऊचिष्टङ्गपि चामिद्धं भोजनं तामसप्रियं अफलकङ्कभीर्यज्ञों विदिदीष्टो यैजते जष्टभ्य मे व्यतीमनहं समादाय ससत्तिकम् अभिसन्धाय तु फलं नम्भर्तं अपि चैव जात् इजते भरतश्रेष्ठा तं यज्ञं वीधिराजसं वीधिहीनं श्रूषान्नं मन्त्रहीनं दक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्यते देवद्विजगुरुप्रज्ञं पूजनं शौचमार्जवं ब्रह्मचर्यं अहिंसा च शरीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च जत् श्रद्धायं व्यसनं चैव वङ्मय्यं तप उच्यते। मनः प्रसादसौम्यत्वं मौनङ्गात्मविनिङ्ग्रहं भावसंशुधिरित्येतं तपोमानसमुच्यते। श्रद्धया परया तप्तं तपस्तं त्रिविधं नरै अफलकङ्कभिर्युक्तै सत्त्विकं परिचक्यते। सत्कारमानपूजार्थं तपोदम्भेन चैव जात् क्रियते तदिह प्रोक्तं राजसं चलमन्द्रुवं मूढग्राहेण त्वनुजत् पीडया क्रियते तप परस्य साधनार्थं वा तत्तामसं उदाहृतं दातव्यं इति जद्दानं दीयतेनुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं कृतं जत्यु प्रत्युपकारर्थं फलं उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद्दानं राजसंश्रुतं। अदेश कालजद्दानं अपात्रे भेष दीयते असत्कृतं अपज्ञातं तत्तामसं उदाहृतं ॐ तत्सदीति निर्देशो ब्रह्मणं त्रिविधा स्मृतं ब्रह्मणास्तेन वेदश्च यज्ञश्च विहिता पुरा तस्मादो पितुदाहृत्य यज्ञदानं तपक्रिया प्रवर्तन्ते विदारोक्ता सततं ब्रह्मवादिनं तदित्यनभिसन्धायं फलं यज्ञं तपक्रिया दानं क्रियाश्च विविधा क्रियन्ते मुख्यकङ्क्षभिः सद्भावे साधुभावे च सदीते तत्प्रयुज्यते प्रशस्ते कर्मणि तथा स छन्दोपार्थयुज्यते यज्ञेन तपसि दाने च स्थिति सदीति चोच्यते कर्म चैव तदर्थीयं सदित्येवा विधीयते अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च जात् असद्युति च ते पार्थ न च तत्प्रत्यनूयिहा। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೆ ಶ್ರದ್ಧಾತ್ರ ವಿಭಾಗ ಯೋಗ ನಾಮ ಸಪ್ತದಶೋಧ್ಯಾಯ. ಓಂ ಶ್ರೀ ಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು. ಶುಭಂ ಭವತು, ಶುಭಂ ಭವತು, ಶುಭಂ ಭವತು.